एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। निर्वाचनायोगेन गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य परिणामेन सहितं प्रतिवेदनम् अद्य राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं प्रस्तूयते। कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी अद्य दिवा राष्ट्रपतेः पौडेलस्य समक्षं निर्वाचनायोगस्य पक्षतः प्रतिनिधिसभा सदस्यानां निर्वाचनस्य परिणामेन सहितं प्रतिवेदनं प्रस्तूयते इति अज्ञापयत्। तत्पूर्वम् अद्यैव प्रतिनिधिसभायाः निर्वाचनस्य अन्तर्गतं समानुपातिक प्रणाल्याः दशोत्तरैकशताय सांसदेभ्य प्रमाणपत्राणि प्रदीयमानानि सन्तीति संसूचितं वर्तते। निर्वाचनायोगस्य सहायक प्रवक्ता कुलबहादुर जीशी निर्वाचनविधेः अनुसारेण समानुपातिक प्रणाल्यां निर्वाचितेभ्य सांसदेभ्य प्रमाणपत्राणि प्रदीयमानानि सन्तीति असूचयत्। राष्ट्रपतेः समक्षं निर्वाचनस्य परिणामेन सहितस्य प्रतिवेदनस्य प्रस्तुतेः अनन्तरं नेपालस्य द्वासप्तत्युत्तर द्विसहस्रतम विक्रमवर्षस्य संविधानस्य षड्सप्ततितम्याः धारायाः प्रथम प्रकरणस्य अनुसारेण सर्वकारस्य संघटनाय मार्गः प्रशस्ति भविष्यति। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने निगदति दलस्य योजना समग्र देशस्य विकासोऽस्ति। राष्ट्रपादलेन नवनिर्वाचितानां सांसदानां कृते ललितपुरे आयोजितस्य द्विदिवसात्मकाभिमुखी कार्यक्रमस्य समापन समारोहं पूर्वेद्यु सम्बोधयन् सभापतिः लामिछाने जनतया प्रदत्तं दायित्वं राष्ट्रपादलस्य स्कन्धे समागतम् अस्तीत्यतः दायित्ववाहितया जनहिताय कार्यं कर्तुम् अन्वरुणत्। जनतया विधेः निर्माणस्य दायित्वं राष्ट्रपादलाय प्रदत्तमस्तीति चर्चयन् सभापतिः लामिछाने विधि निर्माणस्य गहनतमं दायित्वमिदं सर्वैः अनुभवनीयमिति प्रावोचत्। असौ आत्मानं परित्यज्य जनतां देशं च केन्द्रे संस्थाप्य कार्यं करणीयमिति बलं दत्तवान्। सभापतिः लामिछाने अतःपरं सुशासनस्य क्षेत्रे नवीन निदर्शनं संस्थाप्यते इति विश्वासम् अभिव्यनक्। तदवसरे सभापतिः लामिछाने दलात् निर्वाचितेभ्य सांसदेभ्य देशस्य संविधानस्य संसद नियमावल्याः दलस्य विधानस्य च अनुसारेण देशं जनतां च प्रति निष्ठापूर्वकं कार्यं कर्तुं बलं दत्तवान्। प्रधानमन्त्रिणा सुशीला कार्किणा नेपाली कम्युनिष्ट दलस्य नेतृभ्यः निर्वाचनस्य सफलीकरणाय विहितां सहयोगी भूमिकां प्रति धन्यवादः व्याहृतो वर्तते। नेकपा दलस्य संयोजकः पुष्पकमल दाहाल प्रचण्डः पूर्व प्रधानमन्त्री माधव कुमार नेपालः नारायण काजी श्रेष्ठः वर्षमान पुञ्च इत्यादि प्रवृत्तयो नेतारः प्रधानमन्त्रिणः निमन्त्रणायां बालवाटार स्थानं प्राप्ताः आसन्। एतैषा सम्प्रत्येव सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य विषये समसामयिक राजनीतिक विषयेष् च विमर्शनं सम्भूतमासीदिति प्रधानमन्त्रिणा संचार परामर्शदाता रामबहादुर रावल असूचयत्। एवमेव प्रधानमन्त्रिणा कार्किणा सह राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन च ह्य मेलवार्ता विहितास्ति। बालवाटारावर्तिनी प्रधानमन्त्रिनिवासे सम्भूते मेलने निर्वाचनस्य संसद सञ्चालनस्य च विविधेष् विषयेष् विमृष्टम् अस्तीति प्रधानमन्त्रिणः संचार परामर्शदाता रावलः असूचयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः स्ववस्था। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये दिवा एकवादनाय आहुते उपवेशे केन्द्रीय कार्य समितेः पदाधिकारिणः सदस्याः प्रदेशसभापतयः उपस्थित्यर्थम् अनुरुद्धाः सन्तीति कार्यालयस्य कार्यवाहक मुख्य सचिवेन कृष्णप्रसाद दुलाल इत्यनेन प्रकाशितायां विज्ञप्तौ लिखितं वर्तते। उपवेशे निर्वाचनस्य समीक्षया सह आगामि दिनेष् दलस्य रणनीतेः आगामिनः महाधिवेशनस्य च विषयेष् विमृक्ष्यते इति ज्ञापितं वर्तते। प्रधान न्यायाधीश प्रकाशमान सिंह रावत असहज परिस्थितौ अपि सेवाग्राहिणो जनान् केन्द्रे संस्थाप्य कार्यं कर्तुं निर्दिशति। यह तनहु जनपद न्यायालयस्य निरीक्षणस्य क्रमे प्रधान न्यायाधीश रावत न्यायालयं प्रति नागरिकाणां विश्वासः न्यायप्रणाल्याः मेरुदण्डो भवतीति चर्चयन् जनतायै सहजरूपेण सरलरूपेण च सेवाप्रवाह विधातव्य इत्यत्र बलं दत्तवान्। प्रधानमन्त्री सुशीला कार्की ह्य पशुपतिनाथ मन्दिरस्य दर्शनं विधाय तत्र रुद्राभिषेकं पूजाम् अर्चनां च व्यददात्। प्रधानमन्त्री कार्की निर्वाचनस्य शान्तिपूर्णरूपेण सम्पादनस्य पश्चात् आराध्य देवाय पशुपतिनाथाय धन्यवादरूपेण पूजार्चनमिदं वितवती अस्ति। तदवसरे प्रधानमन्त्री कार्की देशं शान्ति स्थायित्वस्य मार्गे अग्रेसरं विधातुं सर्वपक्षतः सहयोग प्राप्त इत्यनेन आत्मना कृतज्ञता अनुभूतेति च उक्त्वा आगामी दिनेषु देशः अतिरिक्तम् अपि उन्नतिर्मार्गे अग्रेसरो भवतु इति कामनां च विहितवती। तदवसरे प्रधानमन्त्री कार्की आराष्ट्रं सर्वेष् नेपालेष् एकतायाः सद्भावस्य आत्मीयतायाश्च भावनायाः सुदृढीकरणं भवतु इति च प्रार्थनां विहितवती आसीत्। पूजा कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री अनिल कुमार सिम्हा पशुपति क्षेत्र विकास कोषस्य सदस्य सचिव प्रकाशमणि शर्मा कार्यकारी निर्देशकः सुभाष जोशी चेत्यादीनां च सहभागिता आसीत्। नवलपरासी बर्दाघाट सुस्ता पूर्व जनपदे जापानीजे इन्सेफ्लाइटिस रोगस्य विरूद्धे सञ्चाल्यमानस्य विशेष टीकौषधाधानाभियानस्य अन्तर्गतम् अधुनावधि षट्चत्वारिंशत्सहस्रेष् अष्टसप्तत्यधिक सप्तशते च जनेष् टीकौषधाधानं विहितं वर्तते इति समाचाराः।